I will share the screen. Just give me. And sharing the Abhyasa Pustakam. Here in page number 56 got over. Yata tata smaratiwa. Yata tata. Yata mata tata putri. Yada yata vastram. यथा बीज क्षम्यतां यदा रज्जुः थ्रेड् यदा रज्जुः तथा हा यथा राजा तथा प्रजा इति गतसप्ताहे वयं दृष्टवन्तः. वि हव् सीन् आल् द अभ्यासम् आल्सो. एनी डौट्स् दे यथा तथा आर् द अर्लियर् वन् यावत् तावत्
वि डिन्ट् डू यथा तथा ऐ थिङ्क् वि डिड् यावत् ता
वि डिड् यथा कालिदासः काव्यं लिखितवान् सर्वे पठितवन्तः.
तथा राजा तथा प्रजा वि डिड् दट्
वि डिड् दट् होल् एक्सर्सैस् एव्री वन् रेड् नो वन् वन् लैन्. So, any doubt? Yata, tata and yavat, tavat. Sandeha, Shiva, Shivampi? Before I start. Yavat, tavat, comparison, Sarvada. Nadyam, yavat, jalam asti, tavat, sarovare, lake, nasti, sarovare, nasti. Esha, yavat, karyam, karoti, tavat, karyam, aham, na, karomi. How much she works. That much I don't work. So yavat tavat yata tata yata raja tata praja. Shabdam agachati kopi mute karoto. You are not sitting in a quiet environment, please mute. Just give me a second, I am just opening. Balaha Kridanti va. And somebody is on mute and breathing heavily on the mic. Then, dear, now we will read one more Nutana Vakya. स्म इति एकम् अस्ति. स्म इन् यूश्वलि द स्म वर्ड् विल् कम् एट् द एण्ड् आफ् द सेण्टेन्स्. वेन् वि यू स्म वेन् यू वाण्ट् टु टेल् समथिङ्ग् विच् हेपन् इन् द पास्ट् बट् यू वाण्ट् टु नरेट् दट् इन् द प्रसेण्ट् टेन्स्. फार् एक्साम्पल् वेन् ऐ वास् लिविङ्ग् इन् इन् मै ओल्ड् हौस् समथिङ्ग् हेपन् सो वेन् ऐ वाण्टेड् टु टेल् दट् तत्र ऐ केन् यूस् टु दिस् इन् टु वेस्. यदा यदा इति वि हेव् सीन् यदा कदा वेन् देन् यदा अहं तत् गृहे वसति स्म ऐ केन् टेल् लैक् आर् यदा अहं तत् गृहे उषितवती वेन् ऐ लिव्ड् इन् दट् हौस् ऐ केन् टेल् देट् आर् ऐ केन् से वेन् ऐ वास् लिविङ्ग् इन् द हौस् बोत् आर् करेक्ट् इन् इङ्ग्लिश् सेम् वे इन् संस्कृत् आल्सो वि हेव् आप्शन् यदा अहं तत् गृहे उषितवती when I was living in that, lived in that house. That is one way. We are going to see the second way. The first way, you know that. Bhutakala prayogaha, lam lakaraha, you know that. Now the second way of telling that past tense, yada aham sadgrihe vasami sma, when I was living in that house, vasami sma, after the kriyapadam, I will add the sma. Then it will give the meaning of was living. यदा अहं मार्गे गच्छामि स्म मम मित्रं मिलितवती सो वेन् ऐ वास् गोयिङ्ग् आन् द रोड् ऐ मेट् मै फ्रेण्ड् यदा अहं गच्छामि स्म
भगिनि न दृश्यति
ओ
योर् स्क्रीन् वी केन् सी
हा हा या 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 सॉरी ऐ डोंट् नो फॉर मी इदानीं दृश्यते वा
आम्
सम्यक् महोदय सम्यक् वाक्यम् उक्तवान् न दृश्यते इति तदैव करेक्ट् न पश्यामि नास्ति इट् इस् नाट् शोयिङ्ग् न दृश्यते सम्यक् सो स्म यूशुलि यूस्ड् फर् वेन् यु वाण्ट् टु से समथिङ्ग् इन् प्रसेण्ट् टेन्स् लैक् अ पास्ट् टेन्स् वेन् ऐ वास् लिविङ्ग् when I was doing this work, yada aham grihe karyam karoti sma, mama putrah agatavan. But mostly, when you say this, it will give, two continuous sentences can also come. But the second sentence will be a simple past tense. First will be a continuous tense, past tense. So, atra pashyamaha, sundareshaha bandhu griham, गत्वा आगतवान् इति अस्ति सुन्दरेशः इति एकः बालः युवकः बन्धुगृहं रिलेटिव्स् हौस् गतवान् आगतवान् गत्वा आगतवान् तत् गत्वा प्रयोगं वयं न पठितवन्तः नेक्स्ट् लेसन् क्वा प्रयोगः अस्ति तदा अहं वदामि गत्वा किमर्थम् इति इदानीं पश्यतु तत्र कः कः किं करोति स्म इति सः मातरं वदति पश्यतु सुन्दरेशः गतवान् आगतवान् हि वेण्ट् अण्ड् केम् बेक् बट् हि वेन् हि वेन् हू वेल् आर् डूयिङ्ग् वाट् सो हि इस् नरेटिङ्ग् वित् अ स्म एक्साम्पल् बै यूसिङ्ग् द स्म
सो वि शुड् यूस् द करोति इस् अ प्रेसेण्ट् टेन्स् अलाङ्ग् वित् दट् स्म हेस् कम् नो फर्
स्म दट् विल् गिव् द मीनिङ्ग् आफ् द पास्ट् पास्ट् तत्र मातामहः ध्यानं करोति स्म मातामहः मातामहः मीन्स् सः ग्राण्ड् फादर् मातामहः मेटर्नल् ग्राण्ड् फादर् मातामही मेटर्नल् ग्राण्ड् मदर् मातामहः ध्यानं करोति स्म तत्र ध्यानं कृतवान् अपि सम्यक् ध्यानं करोति स्म अग्रे एकैकवाक्यं वदतु चित्रं दृष्ट्वा वदतु मातुलानि किं करोति मातुलानि सः का मातुलानि
मातुलानि पाकं पश्यति स्म
किं रिलेशन् रिलेशन्शिप् मातुलानि मीन्स्
आण्टी
मातुलानि किं करोति पूर्णवाक्यं वदतु
पाकं करोति
मातुलानि पाकं करोति स्म मातुलः किं करोति?
वार्तापत्रिकां पठति स्म.
मातुलः मातुलः
मातुलः मातुलः
करोति स्म. Or you can say pujayati sma, also correct. There is a kriya padam. Pujam karoti iti vayamadam, huh? But there is a kriya padam. Pujayati sma. Anantaram.
Rama.
Kim karoti?
रमा निद्रयति स्म.
परीक्षार्थे
रमा निद्रां करोति स्म.
पाठं
निद्रयति
रमा निद्रां करोति स्म अपि सम्यक्.
Vinini, can you request Veena Mohan to please mute? She is disturbing a lot.
Can I tell Sudha?
Breathing heavily. Sudha kim karoti?
Sudha parikshartam patam patati sma.
Parikshartam patam patati sma api sma. Rameshah kim karoti? Anya kopi vadatu. Whoever has not yet answered, others can.
Rameshah yoga.
Rameshah vyayam exercise. Vyayam karoti. Yoga api samyakeva. Yoga abhyasam karoti sma. Atava there is a word for exercise. Vyayam karoti sma. Vyayam.
Okay.
अनन्तरं लीला अन्य कोऽपि वदतु. Somebody else.
भगिनी लीला मार्जनं करोति स्म.
लीला मार्जनं करोति स्म अथवा मार्जयति स्म.
मार्जयति स्म
मातामहि किं करोति? अन्य कोऽपि वदतु.
मातामहि शिशुं लालयति स्म.
मातामहि शिशुं लालयति स्म. सम्यक् लालयति. इदानीं सर्वे एकैकवाक्यं वदतुं प्रयत्नं करोतु. कुर्वन्तु सर्वे. स्म पदम् उपयोगं करोतु. एकवाक्यं पर्याप्तम्. एकैकवाक्यम् प्रयत्नं कुर्वन्तु.
मम पुत्र पाठं पठति स्म.
मम पुत्री पाठं पठति स्म. अनन्तरं
अहं दूरदर्शनं पश्यति स्म.
पश्यामि स्म.
बालकः क्रिकेट् क्रीडति स्म.
बालकः क्रिकेट् क्रीडति स्म. सम्यक्.
यदा अहं बहिः गच्छामि स्म तदा वृष्टिः अगच्छत्.
यदा अहं बहिः गच्छामि स्म अथवा यदि वृष्टिः आगच्छति तदा अहं बहिः गच्छामि स्म.
तदा अहं बहिः न गच्छामि.
अनन्तरं एकनिमिषम् अनुभगिनि वदतु, अनन्तरं वदामि.
अहं देवालयं गतवान्, भक्ताः भजनं कुर्वन्ति स्म, अर्चकाः अर्चयन्ति स्म.
सम्यक्. गतवती स्म. यदा अहं देवालयं गतवती तदा अर्चकाः पूजयन्ति स्म, भक्ताः नमन्ति स्म. सम्यक्. कौशल्या भगिनी वदतु, किमपि उक्तवती?
तत् वाक्ये स्म इति न उपयोगं कृतवती, अतः किमपि अहं पृच्छामि.
ओहो, अहं न उक्तवती वा? यदा वृष्टिः भवति स्म तदा अहं बहिः गच्छामि इति उक्तवती.
अहं यदा
भवत्याः वाक्यम् अहं किञ्चित् परिवर्तनं कृतवती.
अस्तु अस्तु,
चिन्ता मास्तु. वृष्टिः न पश्यति खलु कौशल्या भगिनी, बहिः गच्छति वा न वा इति.
किं
न किमपि नास्ति, अहम् उक्तवती वृष्टिः न पश्यति कौसल्या भगिनी, बहिः गच्छति वा न वा इति. यदा वृष्टिः आगच्छति तदा वयमेव बहिः गच्छामः.
यदा अहं चित्रमन्दिरं गत्वा आगतवती तदा मम सखी मिलितवती.
न, स्म पदम् उपयोगं करोतु.
स्म, मिलितवती स्म.
यदा अहं चित्रमन्दिरं
मिलति स्म,
मिलति स्म, अथवा यदा अहं गच्छामि स्म तदा मिलितवती. एनिथिङ्ग् केन् हाव् स्म, परन्तु प्रथम तत्र प्रैमरि वर्क् किं, यदा अहं चित्रमन्दिरं गच्छामि स्म तदा मित्रं मिलितवती.
तदा मित्रं मिलितवती स्म, शुड् यू स्म न,
तदेव. यदा अहं चित्रमन्दिरं तत्र इन् द वेन् यू यूस् डैरेक्ट् पास्ट् टेन्स् स्म न आवश्यकं,
न आवश्यकं.
न सेकेण्ड् सेण्टेन्स् विल् नाट् हाव् स्म, विल् डैरेक्ट्लि हाव् द भूतकाल.
यस् यस्.
अन्य
इक्तवतः स्म उपयुज्यते वा भगिनि?
गतवान् गतवती एव, देन् स्म इस् नाट् रिक्वैर्ड्. तदेव अहम् उक्तवती. सी, वन् थिङ्ग् यु केन् डैरेक्ट्लि ट्वेल् देन् टेल्, देन् स्म इस् नाट् रिक्वैर्ड्. इफ् यु आर् टेलिङ्ग् इन् भूतकाल देन् स्म इस् नाट् रिक्वैर्ड्. सो स्म इस् रिक्वैर्ड् वेन् यु आर् डूयिङ्ग् वन् वर्क्, समथिङ्ग् हेपन्, सम् इन्सिडेण्ट् वेन् यु वाण्ट् टु नरेट्. Their sma will be very useful. But it is okay, it is correct to tell Balika, Madrika Bhagini Uktavati. Balika Patati sma is also good. But generally, where it will be very useful, when you want to narrate, Yada Sujaya Bhagini Uktavati, Atava Kaushalya Bhagini, Yaha Aham Gacchami sma, Tada Aham Mitram Militavati. It's like a very casual way of telling.
Okay. अस्तु अस्तु.
इट् गिव्स् अ प्रापर् मीनिङ्ग् वेन् यु यूस् वित् टु क्रियापदं, टु वर्क् सैमल्टेनियस् वर्क्. अग्रे
भगिनि, यदा अहं विद्यालयं गच्छामि स्म
तदा
अहं
Sujaya Bhagini, can you mute so that others can tell?
Yada aham vidyalayam gatavati, tada aham upanetram na dharati sma.
Correct. Correct, I was not wearing it.
It should be dharami, no?
धरामि स्म, धरामि स्म. अग्रे रमा
गुरुपौर्णिमा सर्वाः शुभाशयां प्रेषयन्ति स्म.
प्रेषयन्ति स्म. गुरुपूर्णिमा दिने, यदा गुरुपूर्णिमा दिनम् आसीत् तदा सर्वे शुभाशयाः प्रेषयन्ति स्म. सम्यक्. तत्र हा तदैव शर्मिला भगिनी स्मारितं मां स्मारितवती. क्षीर बहुवचने अपि स्म एव आगच्छति. तत्र देर् इस् नो स्पेशल् लेटर् वर्ड् फर् स्म. यदा बालाः क्रीडन्ति स्म तदा एकः बालः पतितवान्. तत्र एकवचनं वा बहुवचनं वा अन्तिमे स्म आगच्छति. देर् इस् नो चेञ्ज् इन् दट्. अग्रे कोऽपि वदति वा?
आं भगिनि, अहं वदामि वा?
हा वदतु भगिनि.
यदा अहम् आपणं गच्छामि स्म तदा मम गृहे मम सखी आगतवती स्म. इस् इट् करेक्ट्?
यदा अहम् आपणं गच्छामि स्म तदा मम मम सखी मम गृहम् आगतवती. पर्याप्तं. सेकेण्ड् लेटर् सेकेण्ड् सेण्टेन्स् विल् नाट् हेव् अ स्म. नाट् रिक्वैर्ड्.
धन्यवादः.
वाट् ऐ सेट् यूश्वलि इट् विल् गो पर्फेक्ट्लि वित् वेन् यु आर् नरेटिङ्ग् संथिङ्ग् लैक् पश्यतु देर् हीस् टेलिङ्ग् यदा अहं मातामहस्य गृहं गतवान् तदा के किं किं कुर्वन्ति मातामहः ध्यानं कुर्वन्ति एव सम्यक् कुर्वन्ति मातुलानि पाकं पचति इति. दो ही इस् नाट् एक्स्प्रेसिव्लि टेल्लिङ्ग् दट् यदा इति. इन् एव्री वर्ड् ही इस् नाट् टेल्लिङ्ग्, बट् जनरलि दिस् विल् हेल्प् वैल् यु आर् नरेटिङ्ग् संथिङ्ग् आफ्टर् वर्ड् or when two actions happen, something would be the primary action. As Rama Bhagini told, when her friend came, she didn't go out, but when she went out, her friend came. So you should use the sma padam for the first verse. Yada, and Sujaya Bhagini also, chitra mandiram. Yada aham chitra mandiram gachami sma tada maham mitram melitavati. Tatra, it will not come ulta, not other way around. Militavati sma iti, that will not come. In general, the hidden meaning is yada tada. Though you don't expressively use it every time, explicitly use it every time, but it is there. Yada tada is inside. Astva?
Yes, ma'am. Clear.
Sarve upta antahava? Can we go ahead?
Bhagini, will it be used like in telling the past tense stories, like
exactly, exactly. When you are narrating something, stories, this will help. Okay. Narrating any incident, this will be useful. When we did yada tada, no, that time we didn't use sma word, we simply used yada tada. But in yada tada, it will be more suitable. Without that also you can use it, but that's a hidden thing. अग्रे अन्यपदं, दिस् इस् मोस्ट् यूस्फुल्. अहं गतसप्ताहे एव वक्तुं विस्मृतवती. केन् डु द होम्वर्क् लेटर् यथा तथा एण्ड् यावत् तावत् प्लस् म कमिङ्ग् वीक् वेन् वि प्राक्टीस् नो अभ्यासं, जस्ट् ट्रै टु यूस् दीस् वर्ड्स् मोर्. Now I will take katva, tva prayogah. That will be very useful for sambhashna, tva prayogah. So try to use these things when you talk.
Tva.
So agre, tva iti ekah prayogah asti. Tva prayogah api, that's why they gave introduction in sma itself. Tva prayogaha, when you want to break, shorten multiple sentence into one thing and having multiple kriyapadam in same sentence, then this tva prayogaha will be used. It is given as itva, but in general we say tva, tva, iti, tva, tva, iti, sometimes it is called. In this word, when I, for example, I will tell you in English first. Aham aapanam gachami from there tatah aham vittakosham bank gachami tatah aham vidyalayam gachami anantaram aham griham agachami. So there are four sentences. Aham aapanam gachami anantaram vittakosham gachami anantaram vidyalayam gachami anantaram griham agachami. There are four sentences. I can simplify this in one single sentence. Aham aapanam gatva vittakosham gatva vidyalayam gatva griham prati agachami. I can simplify this in one word when I use the tva prayogah. Atra I the tva prayogah is like avyayam. It has no tenses. I can use tva in any prayogah. For example, adhya pratah aham aapanam gatavati anantaram vittakosham gatavati anantaram vidyalayam gatavati anantaram griham agatavati. So I can simply say aham pratah aapanam gatva vittakosham gatva vidyalayam gatva griham agatavati. And it is not only for single kriyapadam. I can now, I will try to use multiple kriyapadam. It's tva prayogah. First time it may be a little confusing, just listen. Aham aapanam gatva vastuni svikritya vittakosham gatva dhanam svikritya griham agatavati. So now I use different kriyapadam. Svikritya, svikritya. Samanam, I will give you one more example. Aham pratah uttishtami दन्तदावनं ब्रशिङ्ग् दन्तदावनं करोमि क्षीरं पिबामि अथवा काफीं पिबामि स्नानं करोमि. ऐ केन् टेल् दिस् इन् वन् सेण्टेन्स्. अहं प्रातः उत्थाय त्वा विल् बि हियर् एस् उत्थाय. देर् आर् सम् एक्सेप्शन् देट् ऐ विल् टेल् यू लेटर्. प्रातः उत्थाय दन्तदावनं कृत्वा क्षीरं पीत्वा स्नानं कृतवती. So I can use this tva prayogam for a different kriyapadam also. It is not restricted to gatva gatva. No, I can use it for multiple kriyapadam. This will make our sambhashanam sulabham. It will be fast. You can when you narrate something, you can easily use in single sentence tva prayogah. Pashyatu pustake pashyatu saha shalam gachati patam patati iti asti. Saha shalam gatva पाठं पठति शालां गत्वा पाठं पठति इति अस्ति. अत्र पश्यामि एकं टेबल् अस्ति डौन् 25.2 पश्यतु. इन् जनरल् त्वा प्रयोगं विल् कम् इन् आल् क्रियापदं. डु यु आल् हेव् द पेपर्? ऐ सेण्ट् इट् त्रू वाट्सप् नो वन् क्रियापदं पेपर्.
आं भगिनि.
One sheet, I said it time back. Gachati, patati. All of you have
that? We have.
Can you all take it? Is it possible to take?
It is tavatu bhutakal paper, is it not?
Ah, that's what I said. It can come in any kala. For example, shvaha aham rail sthanam gatva rail yanena Kolkata nagaram gamishyami. This is not attached with any column. Or any kalaha, atava any bahuvachanam. It is independent. You can use this with anything. Like, for example, janaha aapanam gatva palani svikritya mandiram gachanti devalayam gachanti. Tatra janaha iti pullinga shaptam agachati. Parantu janaha aapanam gatva eva ekavachanam eva gatva. Tatra vachanam eva nasti gatva. फलानि स्वीकृत्य देवालयं गच्छन्ति इति आगच्छति. पत्रं मध्ये इदानीं न लभ्यते चेत् त्यजतु, बट् इट् इस् इन् द पेपर् त्वा प्रयोगः. इफ् इट् इस् देर् वि केन् डू अन् अभ्यासः अभ्यासं. Just a second. If I have it in docs, I'll just send you immediately. Madhurika Bhagini Prashit. Very good. Madhurika Bhagini shared it all. Can you all open your WhatsApp? Open. हा, ऐ विल् रसे पठति गच्छतु तत्र पञ्चमस्तम्भं सुस्थिरो मध्ये अस्तु अस्ति पठित्वा पतित्वा इति. अहम् एकवारं पठति गच्छामि इति वदामि, सर्वे त्वा प्रयोगं वदतु. सर्वे अन्म्यूट् कृत्वा वदन्तु. गच्छति गत्वा गत्वा हा पठति
पठित्वा
पठित्वा. इफ् यु आर् नाट् इन् अ सैलेण्ट् प्लेस् प्लीस् म्यूट्. ऐ केन् हियर् सम् टिवि. कृपया म्यूट् कुर्वन्तु, प्लीस् डोण्ट् डिस्टर्ब् अदर्स्.
वक्त्वा
युर् एन्वैरन्मेण्ट् इस् नाट् सैलेण्ट् प्लीस्
कृत्वा
प्लीस् रीड् टुडे भगिनी, सो मेनि नाय्स्. गच्छति
गत्वा
गत्वा पठति
पठित्वा
पठित्वा पतति
पतित्वा
पतित्वा
क्रीडति
क्रीडित्वा
क्रीडित्वा
वदति
उक्त्वा.
सी दिस् इस् वै ऐ वाण्टेड् आल् यू टु प्राक्टीस्. वदति क्रियापदम् उक्त्वा इति
उक्त्वा
वक्त्वा इति नागच्छति, उक्त्वा. हा पिबति
पीत्वा
पीत्वा
लिखति
लिखित्वा
लिखित्वा. हा नयति
नीत्वा
पश्यति
दृष्ट्वा
दृष्ट्वा भवत् पृच्छति
पृष्ट्वा
पृष्ट्वा भवति मिलति मिलति
मिलित्वा
मिलित्वा
मिलित्वा मिलित्वा
त्यजति
त्यक्त्वा
खादति
खादित्वा
खादित्वा खादित्वा जानाति
ज्ञात्वा
करोति
कृत्वा
शृणोति
श्रुत्वा
ददाति
दत्त्वा
दत्त्वा प्रेषयति
प्रेषयित्वा
प्रेषयित्वा प्रक्षालयति
प्रक्षाल्य
प्रक्षाल्य. पश्य तत् अपि किञ्चित् भिन्नम् अस्ति. प्रक्षाल्य इति आगच्छति, प्रक्षालित्वा इति न आगच्छति. प्रक्षाल्य उत्तिष्ठति
उत्थाय
उत्थित्वा
उत्थाय उत्थाय न उत्थाय दट्स् आल्सो स्पेशल् वन्. उपविशति
उपविश्य
उपविश्य स्थापयति
स्थापयित्वा
स्थापित्वा स्थापयित्वा स्मरति
स्मृत्वा
स्मृत्वा
स्मृत्वा. अत्र टेबल् पश्यति चेत् अभ्यासपुस्तके 25.2 अत्रापि किञ्चित् दत्तवन्तः. वि हेव् गृह्णाति अत्र नास्ति, गृहीत्वा इति अस्ति, गृहीत्वा. अनन्तरं रोदिति, रोदित् रुदित्वा इति, रो विल् बिकम् रु, रुदित्वा इति अस्ति. अनन्तरम् आनयति, आनीय इति, नयति नीत्वा आनयति आनीय इति आगच्छति. अनन्तरम् आह्वयति, कालिङ्ग् समून् आह्वयति, आहूय आहूय इति आगच्छति. इदानीं ऐ विल् काल् बै नेम्, अदर्स् केन् म्यूट् युवर् सेल्फ़्. एक एक वाक्यम् एदर् यु केन् टेक् इट् फ्रम् दिस् पेपर् स्क्रीन्शाट् आर् यु केन् टेक् इट् फ्रम् द टेबल्. एक एक वाक्यं त्वा प्रयोगम् उपयोगं कृत्वा वदतु. कौशल्या भगिनी प्रारम्भं करोतु वा?
कृत्वा
अस्तु महोदय.
किमपि त्वा प्रयोगं लघुवाक्यम् एकं पर्याप्तम्.
अहं श्लोकम् उक्त्वा मन्दिरं गच्छामि.
श्लोकम् उक्त्वा मन्दिरं गच्छामि.
कार्यम्
अनन्तरं पार्वल् भगिनी वदति वा?
कार्यालयं, कार्यालयम्.
अहम् आम्रफलरस्य पीत्वा श्लोकं लिखित्वा, श्लोकं लिखित्वा आपणं वस्तूनि नयामि.
आपणं गत्वा वस्तूनि,
आपणं गत्वा वस्तूनि नयामि.
सम्यक्. सुजया भगिनी वदति वा?
अहं कार्यं गृहे
कौशल्या भगिनी म्यूट् करोति वा?
अहं गृहे कार्यं कृत्वा वित्तकोशं गच्छामि.
वित्तकोशं गच्छामि. सम्यक्. रमा भगिनी?
आं भगिनि, अहं सङ्गीतं श्रुत्वा निद्रां करोमि.
सङ्गीतं श्रुत्वा निद्रां. सम्यक्. शोभा भगिनी?
अहं प्रक्षालयित्वा स्नानं कृत्वा पाकं करोमि.
प्रक्षाल्य, इट्स् अ स्पेशल् क्रियापदं, प्रक्षाल्य.
प्रक्षाल्य, ओके, प्रक्षाल्य
शालां गच्छति, शालां गत्वा
स्नानं कृत्वा पाकं करोमि.
स्नानं कृत्वा पाकं करोमि. सम्यक्. लक्ष्मी भगिनि?
अहं उत्थाय व्यायामं कृत्वा विद्यालयं गच्छामि.
विजया भगिनि?
अहं पूजां कृत्वा अल्प आहारं खादामि.
अल्पाहारं, दीर्घ
खादामि.
वीणा भगिनि?
आं भगिनि, अहं प्रातःकाले समाचारपत्रं पठित्वा, सोरि न, वार्तापत्रं पठित्वा व्यायामं करोमि.
व्यायामं करोमि. अनुभगिनी?
बालकः विद्यालयं गत्वा पाठं पठति.
बालकः विद्यालयं गत्वा पाठं पठति. मधुरिका भगिनि?
बालकः खादित्वा बहिः क्रीडां करोति, क्रीडति.
क्रीडति. खादित्वा बहिः क्रीडां करोति, बहिः. अरविन्द् महोदय?
अहं कार्यालये गत्वा कार्यं करोति.
कार्यालयं गत्वा कार्यं करोति, करोमि. शर्मिला भगिनी?
भगिनी पुस्तकस्य चित्रं प्रेषयित्वा तत् दृष्ट्वा अभ्यासं कुर्वन्तु इति वदति.
अभ्यासं कारयति अपि सम्यक्. कारयति. करोति अहं करोमि, कारयामि ऐ मेक् अदर्स् टु टेल्. सम्यक्. प्रेषयित्वा दृष्ट्वा अभ्यासं कारयति. अजय् महोदय वदति वा? श्रीरञ्जनी भगिनी वदति वा?
आं वदति भगिनि.
वदामि.
सारी, वदामि. अहं लेखनीं लिखित्वा श्लोकं श्रुत्वा पाकं पचामि.
किं लेखनीं लिखित्वा? पत्रं लिखित्वा अथवा पाठं?
ओके ओके.
अथवा लेखन्या वित् पेन् इति आगच्छति. सो पत्रं लिखित्वा अथवा श्लोकं लिखित्वा पाठं लिखित्वा एनिथिङ्ग्.
ओके, लैक् अ डैरी आर् समथिङ्ग्, लैक् यु नो जस्ट् सम् रैटिङ्ग्, राण्डम् रैटिङ्ग्.
किञ्चित् पत्रम् एनिथिङ्ग्, पुस्तके लिखित्वा, पुस्तके लिखित्वा.
ओके मेम्.
शीतल् भगिनि मौनेनैव अस्ति. अस्तु, सो ऐ नीड् टु गो.
श्रूयते भगिनि?
किं
श्रूयते?
हा, शीतल् भगिनि या वदतु भगिनि.
अहं संस्कृतवर्गे पठित्वा भोजनं कृत्वा संस्कृत पुस्तकं पठामि.
सम्यक्. अस्तु, अद्य वयं समापयामः. ऐ हेव् सम् वर्क्.
ओके.
सो आगामिसप्ताहे वेन् यु आर् प्राक्टीसिङ्ग् फर् सम्भाषणं, मेक् श्यूर् द लास्ट् फोर् लेसन्स् किं यथा तथा यावत् तावत्
अण्ड्
स्वा प्रयोगं. स्वा यु केन् टाक् अबौट् एनिथिङ्ग्, एनी टापिक् यु केन् चूस्. आर् मोस्ट्ली लैक् युवर् एक्स्पीरियन्सस् वेन् ऐ वेन् देर् इट् हेपन् समथिङ्ग् लैक् दट्. ट्रै टु कीप् इट् एस् एन् इन्सिडेण्ट्. Or you can translate any story. Don't take a story directly, but you try to translate any story. Agam saptahe tat kurmaha sambhashana abhyas evam kurmaha.
Bhagini, we have to, Bhagini, I made one sentence.
Vadatu Bhagini.
Aham panchavadane utthaya shlokam shrutva pushpam aniya pujam karomi.
यू केन् सिट् से एनिथिङ्ग्. कृतवती आल्सो सम्यक्. इफ् यु आर् डूङ्ग् इट् एव्रिडे, प्रतिदिनस्य कार्यं मीन्स् करोमि एव सम्यक्. एव्रिडे रोटीन् करोमि सम्यक्. अद्य वदति चेत् कृतवती सम्यक्. तत्र त्वा प्रयोगम् इट् इस् नाट् रेस्ट्रिक्टेड् वित् एनी कालम्. यु केन् यूस् एनिथिङ्ग्. अस्तु वा?
ओके, धन्यवादः. थेङ्क् यू.
आगामि सर्वे भवन्तु.
धन्यवादः.
सर्वे भवन्तु, उक्त्वा गच्छामः.
सर्वे
सुजया भगिनी एव वदतु. उच्चैः वदतु. किमेक दश्चल् सुजया भगिनी.
सर्वे
पूर्णः समयतु. सर्वे भवन्तु सुखिनः एव.
सर्वे भवन्तु सुखिनः. यु हेव् टु रिमैण्ड् सर्वे सुखिनः. सर्वे भवन्तु भद्राः. सर्वे भद्राणि पश्यन्तु.
मा कश्चित् दुःखभाग्
ॐ शान्ति शान्ति शान्तिः
धन्यवादः
धन्यवादः